प्रत्यक्षानुभवं ग्राह्यम् राजविद्या राजगुह्यम् प्रत्यक्षानुभवं ग्राह्यम् उत्तमं शाश्वतं गोप्यम् ब्रह्मज्ञानं भवमोचनम् व्याप्तम् सकल जीवुलु नालो उन्ना नेनु वानिलो लेनु सुमा ಲಭೆ